अस्तु अस्तु, प्रथमं ध्येयमन्त्रं वदामः, पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, सर्वे मिलित्वा वदामः, ध्यायामि संस्कृतं, वन्दे संस्कृतमातरम्, संस्कृतस्य प्रसाराय
मातरम् संस्कृतस्य
विश्वं शान्तिरमन्वितम्, ॐ शान्ति
शान्ति,
हरिः ॐ श्रीयो नमो नमः हरिः ॐ. अस्तु, शारदा भगिनी प्रश्नं पृष्टवती, अस्ति आसीत् भविष्यति अपि च भवति. भगिनि वदतु. अस्तु, अत्र युवकः अस्ति, पूर्वं सः बालकः आसीत्, कालान्तरे सः वृद्धः भविष्यति. सो अत्र अस्ति इति अस् धातु इति वदामः. अस् इति किम्? अस् इति मूलपदम्, मूलपदं धातु इति वदामः. क्रियापदम् अस्ति, वर्तमानकाल, वर्तमानकाले अस्ति इति वदामः. भूतकाले आसीत् इति वदामः, अस्ति आसीत्. भविष्यति, सो अत्र अस् धातु कार्यं न करोति. भू धातु इति अस्ति, भवति इति क्रियापदं, तस्य मूलरूपं भू. सो अत्र अस् धातु भविष्यत्काले कार्यं न करोति, भू धातु स्वीकरोति. भू धातोः रूपं भविष्यति. एवमेव सर्वत्र लिङ्गभेदः नास्ति. महिला अस्ति, बालिका आसीत् पूर्वम्, अनन्तरं वृद्धा भविष्यति. पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गे पुष्पम् अस्ति, पूर्वं मुकुलम् आसीत्, अनन्तरं बीजं भविष्यति. सो अत्र सर्वत्र लिङ्गभेदः नास्ति. किमर्थं लिङ्गभेदः नास्ति? एते सर्वे, ओके, एतानि सर्वाणि क्रियापदानि लकार, लकार इत्युक्ते साक्षात् साक्षात् किं वदामि, वर्तमानकाले लट् लकार, भूतकाले लङ् लकार, भविष्यत्काले लृट् लकार इति लकारम् उपयुज्य क्रियापदानि. सो अतः लिङ्गभेदः नास्ति. अस्तु, अग्रिम स्लैड्. अत्र किम् अस्ति? एकवचनम् अस्ति, वचनं सन्ति इति अस्ति. सन्ति, महिला अस्ति, बालिका आसीत्, अत्र महिलाः सन्ति, पूर्वं बालिकाः आसन्, अनन्तरं वृद्धाः भविष्यन्ति. एवमेव पुरुषः अस्ति चेत् युवकः बालकः वृद्धः. अत्र युवकाः सन्ति, बालकाः आसन्, वृद्धाः भविष्यन्ति. अत्रापि समानमेव, महिलाः आसन्, वृद्धाः भविष्यन्ति. नपुंसकलिङ्गे अपि समानमेव, पुष्पाणि सन्ति, आसन्, भविष्यन्ति, लिङ्गभेदः नास्ति. अनन्तरं भवति, भवति कुत्र उपयोगं कुर्मः, अस्ति कुत्र उपयोगं कुर्मः, भवति कुत्र उपयोगं कुर्मः इत्युक्ते एकः सम्भवः. नमस्कारः महोदय, परमेश्वर महोदय, अस्तु. सो यत्र सम्भवः भवति इत्युक्ते इवेण्ट् इति वदामः खलु, इवेण्ट् इति वदामः चेत् वृष्टिः भवति. वृष्टिः एकक्षणम् एव न अस्ति खलु. वृष्टिः बहु निमेष, एकनिमिषं न अस्ति, एकनिमिषान्तरं न अस्ति खलु, नास्ति नास्ति.
इदानीं चेन्नै नगरे वृष्टिः अस्ति भगिनि.
सो अत्र वृष्टिः भवति, वृष्टिः अस्ति अपि समीचीनमेव, वृष्टिः अस्ति अपि समीचीनं, भवति अपि समीचीनं. वृष्टिः अस्ति, वृष्टिः भवति वा तत्र, वृष्टिः भवति, वृष्टिः अस्ति, द्वौ अपि समीचीनमेव.
भगिनी, वाट् इस् दट् मीन्?
So, so if something lasts for just
that word you used.
Namaste Bhagini, Jyoti here.
Jyoti Bhagini, swagatam.
Namaste Bhagini.
Namaste Bhagini, Ramya here.
Ramya, asko. Which word Bhagini?
Vrishtihi, artham?
So I said if something lasts for a long time or a certain time, like an event, right? So karyakrama, a program, it doesn't last for just one split second, it lasts for an hour, then we say karyakramah bhavati. वृष्टिः भवति, अस्माकं
वर्ड् मीन्
विच् वन् भवति?
नो
वृष्टिः, ओके सारि, वृष्टिः मीन्स् रेन्,
रेन्, ओ
रेन्,
अवगतम्.
अस्तु, सो इफ् समथिङ्ग् लास्ट् फार् अ लाङ्ग् टैम् आर् अट्लीस्ट् मोर् देन् अ स्प्लिट् सेकेण्ड् देन् वि से भवति. Or it will happen, is and happen.
Bhagati, I'm sorry, Bhagini, if it is a short shower for just a few minutes, then would you say asti at that point?
Okay, so at that
time, that's how it's raining over here, you know, for a very, very short time it stops.
At that time, you say abhavat. अभवत्, वृष्टिः अभवत्, वृष्टिः.
भगिनी, see, if you are saying it is only for a short time, long time for asti bhavati, the pushpam is going to be here for some time, then pushpam bhavati will not come, no,
it won't come. So for all inanimate objects we say asti.
Okay, that's simpler. Got it.
But then, rain, is it an inanimate or an animate? We can't tell. So then you go to the next rule. So at that time, I can say Vrishtihi Asti or Vrishtihi Bhavati. Both are okay.
Rain is animate only because it is moving. It's falling.
Yeah, right. So when it comes to shower, you cannot say like I'm taking a shower, right? So you cannot say shower asti. So you say aham snanam swikaromi, aham sna, like that. So we go so whatever we are doing, that is a different kriya pada. So asti and bhavati is what is happening, what is. They both mean is.
Bhagini, mukulam is bud, is it?
Bud.
Okay. Thank you.
Astu. अन्यप्रश्नः अस्ति वा अस्ति भवति विषये सो अत्र फार् भवति सो लेट् से दिस् इस् अ वृष्टिः अस्ति आर् वृष्टिः भवति दे आर् बोत् ओके बट् इफ् वि यूस् भवति सो इस् ए वृष्टिः अभवत् आर् वृष्टिः आसीत् बट् फार् फ्यूचर् भविष्यति एव गृहपाठः अस्ति गृहपाठः आसीत् गृहपाठः भविष्यति अहम् अत्र भवामि ऐ विल् बी हियर् अहं श्वः भविष्यामि अहं तत्र आसम् So it is a very subtle, you can use both. Both are okay. But for inanimate, definitely only asti. So you cannot say, lekani bhavati, na. Lekani asti. Avagatam va?
No.
Okay, it's a very...
I'm sorry, just to go back to the inanimate objects. Vrishti Bhavati, because it's continuous.
Yeah.
But if it was in the past, you're saying Vrishti Asit.
Abhavat, Bhagini.
Abhavat, okay.
Yeah.
So is it the case that you're going for like the present continuous and past continuous is Bhavat, but if it's just present, then you're using Asti?
No.
It's not as simple as that.
No.
Okay. I'm getting really confused with the inanimate objects bit.
So for inanimate. Okay, I'm getting a lot of noise. Can you please mute? Please. Okay. Dhanyavada. So for inanimate objects, we always use asti. Okay, asti, asit, but भविष्यति लेखनी अस्ति लेखनी आसीत् लेखनी श्वः तत्र भविष्यति इट् विल् बी द लेखनी श्वः भविष्यति वेन् इट् कम्स् टु भवति वेन् डु वि यूस् भवति वेन् डु वि यूस् अस्ति सो यु केन् आल्वेस् यूस् अस्ति वृष्टिः अस्ति For example, our class. Shukravasare vargaha asti. Atava vargaha bhavati. Because it is a process. There is a program. There is a music program.
But if you're saying that for So if you're saying that we're using, sorry, there's a bit of background noise, I'll just mute very quickly.
Yeah.
If you're saying that we use asti with inanimate objects, yet when we're talking about rain, vrishti, we're not using bhavati, we're using...
No, for rain and varga, for example, our class is an inanimate object, right? So, but it doesn't last for just a second. Like, you know, it is a process. So I say, vargaha bhavati. I can also say, shukravasare vargaha asti.
Okay.
Shukravasare vargaha bhavati.
Okay. So the rule is, inanimate objects go for asti.
If always, it's, yeah. If it is like a process. It is something that lasts longer. So you can say inanimate objects also last longer, but I'm talking about the time.
Yeah.
If there is a music program, for example, Sangeeta Karyakramaha. Sangeeta Karyakramaha Asti Va? Aam, Sangeeta Karyakramaha Asti. Sangeeta Karyakramaha Bhavati Va? Aam, Sangeeta Karyakramaha Bhavati.
Okay.
Okay, so the program is like something that lasts for some time.
Okay, thanks very much.
Beginning, so there is a beginning and an end to it. So we can say Karyakramaha Saptavadanataha Ashtavadana Paryantam Bhavati. Or Karyakramaha Saptavadanataha Ashtavadana Paryantam Asti. They are both okay. They are both grammatically okay. They are both 100% understandable. Everything is fine.
Okay, thank you.
So you can choose to use Bhavati or Asti. But for things like Lekani, Pustakam, Nischayena, Asti Eva. Avagatam va?
Thank you.
Avagatam.
Avagatam.
Asti.
Bhagini.
Asti. सो अत्र गृहपाठे प्रश्नः अस्ति वा च अपि एव एवम् इति कोऽपि कापि किमपि अस्तु तर्हि एकमेकं कुर्मः गोपिका भगिनी आरम्भं करोति वा रामः गच्छति सीता गच्छति लक्ष्मणः
आं भगिनि रामः गच्छति सीता गच्छति लक्ष्मणः अपि गच्छति
लक्ष्मणः अपि गच्छति अनन्तरम् अम्ब अनन्तरं सागरि भगिनी अनन्तरं महेश महोदय अम्ब रामः सीता लक्ष्मणः
रामः सीता लक्ष्मणः च गच्छति
गच्छन्ति उत्तमं च गच्छन्ति उत्तमम् सर्वे वदन्तु अनन्तरं म्यूट् मध्ये गच्छन्तु उत्तमं सागरि भगिनी रामः सीता लक्ष्मणः च वने
चतुर्दश वर्षेभ्यः वसन्ति
उत्तमं वने एव इति वदामः चेत् अन्य कुत्रापि न वसन्ति वने एव ते अयोध्यां न वसन्ति ते अन्य प्रदेशे न वसन्ति वने एव वसन्ति उत्तमं महेश महोदय राम गच्छतु
राम वनं गच्छतु इति कैकेयी रामम् उक्तवती
इति कैकेयी रामम् उक्तवती यदा वयं साक्षात् अन्य किमपि उक्तवन्तः चेत् तत् लिखामः चेत् तत्र इति आगच्छति इति उत्तमं महोदय धन्यवादः
एक्टिव्
लैक् यु नो वेन् वि यूस् कोट् विदिन् कोट्स् उदाहरणार्थं सत्यमेव जयति इति कः वदति महात्मा गान्धीजी खलु
महात्मा गान्धी
सत्यमेव जयते
इति कठोपनिषद् भवति
ओ कठोपनिषद् वा अस्तु कठोपनिषद् वदति महात्मा गान्धीजी अपि वदति उत्तमम् अन्यं वदामि उत्तिष्ठ
जाग्रण्डक
वा अहं न जाने अस्तु उत्तिष्ठ जाग्रत इति विवेकानन्दः वदति इति अस्तु अस्तु बीना भगिनी अनन्तरं शारदा अनन्तरम् उमाकृष्णन् भगिनी
अहं मञ्चतः पञ्च निमिषान्तरम् उत्तिष्ठामि इति अहं चिन्तयामि.
इति अहं चिन्तयामि. अत्र अत्र अपि मम चिन्तनम् एव, मम चिन्तनं, मम चिन्तनम् अहम् उत्तिष्ठामि इति मम चिन्तनम्. अहं वृष्टिं शृणोमि इदानीं, बहु सुन्दरम् अस्ति श्रोतुम्. अहमपि अनुभवामि वृष्टि. अस्तु शारदा भगिनी, अनन्तरम् उमाकृष्णन् भगिनी.
मेखला आगच्छति, अहम् अपि आगच्छामि. चन्द्रा उक्तवती.
अहमपि आगच्छामि इति चन्द्रा उक्तवती. अहमपि आगच्छामि इति चन्द्रा उक्तवती. अत्र अपि इति पदम् उपयोगं कुर्मः चेत् पूर्वम् अन्यवाक्यम् आवश्यकम्. मेखला आगच्छति, अहमपि आगच्छामि इति चन्द्रा उक्तवती. कृपया म्यूट् मध्ये पश्यन्तु. बहु सुन्दरम् अस्तु. उत्तमं शारदा भगिनी अभवत्. उमाकृष्णन् भगिनी.
आं भगिनि, परन्तु परन्तु चन्द्रः निश्चयेन आगच्छति वा न वा इति अहं न जानामि.
एतदपि मम एव चिन्तनं, मम चिन्तनं सा आगच्छति वा न वा इति अहं न जानामि. मम चिन्तनम् एव. अत्र कोऽपि उक्तवान् राम वनं गच्छतु. अत्र कापि कैकेयी, कैकेयी उक्तवती. अत्र मम चिन्तनम्. अत्र चन्द्र, चन्द्रायाः वचनम्. अत्र मम चिन्तनम्. अस्तु उत्तमं भगिनि. सविता भगिनी, मालति भगिनी, नारायणमूर्ति महोदय. प्रथमं सविता भगिनी.
यस् भगिनि. मम दक्षिणहस्ते पुष्पं नास्ति, मम वामहस्ते एव पुष्पमस्ति.
एव पुष्पम् अस्ति. एव पुष्पम् अस्ति. सो अत्र मम दक्षिणहस्ते नास्ति, मम वामहस्ते
पुष्पम् अस्ति.
उत्तमं भगिनि, धन्यवादः. मालति भगिनि.
भगिनि
नैन्.
वा भवान् भवति संस्कृतं जानाति वा?
नवम.
मम वामहस्ते दट् इस् ओवर् रैट्? मम वामहस्ते पुष्पम् अस्ति. मम दक्षिणहस्ते पुष्पं नास्ति वा?
नास्ति वा अथवा नास्ति एव?
ओ नास्ति एव.
सो अत्र सो ऐ रोट् दिस् बिकास् ऐ वाण्ट् सी द डिफ्रेन्स्. अत्र अत्रापि एव, अत्रापि एव. भेदः कः? अत्र अहं केवलं वदामि मम वामहस्ते एव अस्ति इत्युक्ते दक्षिणहस्ते नास्ति. नास्ति.
मम ऐ विल् रीड् वन्स् अगेन्. मम वामहस्ते पुष्पम् अस्ति, मम दक्षिणहस्ते पुष्पं नास्ति एव.
नास्ति एव इत्युक्ते निश्चयेन नास्ति.
ओ निश्चयेन नास्ति.
सो अत्र क्रियापदमस्ति नास्ति इति. क्रियापदस्य अनन्तरम् एव इति आगच्छति चेत् निश्चयेन इति अर्थः. सो अत्र ऐ कुड् एड् मम वामहस्ते एव पुष्पम् अस्ति, मम दक्षिणहस्ते पुष्पं नास्ति एव इति.
नास्ति एव.
अत्रापि एव अत्रापि एव, परन्तु अत्र एव इति योजयामः चेत् वामहस्ते एव अस्ति, दक्षिणहस्ते नास्ति, केवलं वामहस्ते. अस्तु, अवगतं वा भेदः? अस्तु, मालती भगिनी खलु? अस्तु, नारायणमूर्तिमहोदय
भगिनी. I didn't get the difference between the two. Can you explain it? Punaha vadatu.
Vadami bhagini. Astu. Atra, mama vama haste eva pushpam asti. Ittite dakshina haste nasti. Iti artaha. Kalo? Astu. Atra, mama dakshina haste pushpam nasti eva. एव सो अत्र क्रियापदस्य अनन्तरम् एव आगच्छति चेत् निश्चयेन इति अर्थः.
When it comes in the end, you're saying definitely it's not there. And if, in 8?
In 8, मम वामहस्ते एव पुष्पम् अस्ति इत्युक्ते दक्षिणहस्ते नास्ति इति अर्थः.
Okay.
Basically, it means that it's only in my right left hand, not in my right hand. It is definitely not in my right hand.
So, atra dakshinahaste pushpam nasti eva. So, it means definitely. उदाहरणार्थम् अहं पूर्वमेव उक्तवती, रामः फलं खादति एव. इत्युक्ते रामः फलं न ददाति, न कर्तयति, न पाकं करोति, न किमपि न करोति, खादति एव. ओन्लि ईट्स्. दि अदर् अर्थ इस् डेफिनेट्लि नाट्. Definitely does not do anything else. He definitely eats. Ramaha phalam khadati eva. He definitely eats the fruit. Abhyasa pustake api tata eva. Sa na agachati eva. Hello, there is one sentence like that. Eka vakyam asti. Sa ne. न आगच्छति एव, न आगच्छति एव मीन्स् डेफिनेट्लि विल् नाट् कम्.
आं भगिनि.
सो वी हाव् टु अर्थ. इफ् इट् कम्स् आफ्टर् द क्रियापदं पुष्पं नास्ति एव, वन् इस् निश्चयेन नास्ति.
आं भगिनि,
दट् इस् दि अर्थ हियर्. अस्तु, नारायणमूर्तिमहोदय, अनन्तरम् उषा भगिनी, अनन्तरं श्रीनिवासमहोदय. नारायणमूर्तिमहोदय, नारायणमूर्तिमहोदय अन्म्यूट् करोतु. अस्तु, उषा भगिनी. उषा भगिनी अन्म्यूट् करोतु. नारायणमूर्ति वा? अस्तु, नारायणमूर्ति. नम्बर्
टेन्. हियर् वि हाव् भवान् भवति संस्कृतं जानाति वा? सो इस् इट् सो? एवं वा?
उत्तम. एवं वा?
एवं वा? एज् अ
एवं वा, भवान् जानाति वा?
भवान् भवति संस्कृतं जानाति वा? बहु उत्तमम्.
उत्तमम्. एवं वा, उत्तमम्. उषा भगिनि, अग्रिमवारं.
सः चिन्तयति सर्वे सम्यक् गायन्ति इति.
इति उत्तमम् इति.
भवती अपि एवं चिन्तयति वा?
उत्तमम्. एवं चिन्तयति वा? सो दे बोत् मीन् लैक् दिस्. ओके बट् डिपेण्डिङ्ग् आन् द काण्टेक्स्ट् वि चेञ्ज् सः चिन्तयति सर्वे सम्यक् गायन्ति इति भवती अपि एवं चिन्तयति वा लैक् दट् ओके सो वेरि गुड् उत्तमम् उत्तमं भगिनि प्रश्नाः सन्ति वा सो अत्र अत्र अपि देर् इस् अ सटल् डिफ्रेन्स् इन् अर्थ बट् यु नो हियर् यु हाव् टु यूस् द करेक्ट् वन् इट्स् नाट् लैक् अस्ति अण्ड् भवति यु केन् यूस् भवति आर् यु केन् यूस् अस्ति बट् इन् सर्टन् सर्कम्स्टेन्स् यु केन् यूस् ओन्ली अस्ति लैक् आसन्दः अस्ति बट् भवति इस् युर् चाय्स् यु यूस् इट् आर् यु डोण्ट् हाव् टु यूस् इट् बट् इन् भविष्यत् काल निश्चयेन भविष्यति एव ओके अस्तु अत्र एव ओन्ली यु केन् यूस् नाट् एवम् अत्र एवम् ओन्ली यु केन् यूस् नाट् एव सो अत्र एवम् अण्ड् एव उत्तम उत्तमप्रश्नः भगिनी ऐ एम् ग्लाड् यु आस्क्ड् द क्वश्चन् सो अत्र एव मीन्स् सः चिन्तयति ऐ एम् सोरि नो नो अत्र इति सोरि इति अण्ड् एवम् ओके सो अत्र इति कम्स् हियर् अण्ड् हियर् एवं सो एवम् अण्ड् एव कः भेदः सो अत्र मम वामहस्ते पुष्पम् अस्ति मम दक्षिणहस्ते पुष्पं नास्ति एव मम वामहस्ते एव पुष्पम् अस्ति अत्र मम वामहस्ते एव पुष्पम् अस्ति एव मीन्स् केवलं मीन्स् ओन्लि मम वामहस्ते एव पुष्पम् अस्ति दक्षिणहस्ते पुष्पं नास्ति ओके सो दट् इस् एव लैक् वेन्दी से रामस्य पत्नी सीता एव ओके रामस्य पत्नी इस् नाट् एनिबडि एल्स् सीता एव सो वेन् डु वि से एवम् एवम् इस् वेन् वि हियर् समथिङ्ग् अण्ड् देन् वि रियाक्ट् टु इट् देन् वि यूस् एवम् So when we say evam, we are referring to something that we heard before or we saw before. Udaharanartham, aham vadami, aham bahihi gachami, aham bhojanashalam gachami, aham tatra eva khadami, if I say all that. Then you will say evam kimartham karoti, right? Why are you doing this? कोविड् सिचुवेशन् अस्ति कोविड् समयः इदानीं कोविड् समयः बहिः मा गच्छतु एवं किमर्थं करोति सो वेन् यु से एवं यु आर् रेफरिङ्ग् टु समथिङ्ग् दट् हेपन्ड् इन् फ्रण्ट् आफ् यु सम्बडि जस्ट् टोल्ड् यु लैक् दट् अवगतं वा भगिनि एवम् अण्ड् एव लैक् दिस् Eva is only, Eva means like this. But here also like this. But here it means iti. Because it is following a quote or something. Saha chintayati, sarve samyak gayanti iti.
Statement.
Statement. It is a thought or some words that somebody else spoke. Like that. Astu. अस्तु उषा भगिनी अभवत् श्रीनिवास महोदय
सीता रामस्य पत्नी एव अन्यस्य पत्नी नास्ति एव
नास्ति एव उत्तमं नास्ति एव
concept as the number line
number uttama yeah nasti so atra I put nasti but here I didn't put nasti correct ramasya patni eva sa anyasya patni nasti eva so instead of nasti eva we can also put na eva so it becomes naiva
oh okay
naiva. yeah naiva सा अन्यस्य पत्नी नैव. सो इट् बिकम्स् नैव और् नास्ति एव, द्वौ अपि समान. न एव नैव. सो अत्रापि ऐ केन् रैट् नैव और् नास्ति एव, द्वौ अपि समान. अस्तु, परमेश्वर महोदय, अनन्तरं ज्योति भगिनी, रम्या भगिनी. मम पुस्तकं सो स्टार्टिङ्ग् नौ. ऐ डोण्ट् थिङ्क् ऐ वेण्ट् ओवर् वेरि क्लियर्लि. ऐ विल् गो थ्रू इट् इफ् यु आर् हेविङ्ग् ट्रबल्. सो अत्र सो द क्वश्चन् इस् भवतः पुस्तकं कुत्र अस्ति? So,
I was muted. I will just tell you.
Muted.
Mama pustakam, mama grihe, kutrapi asti.
Uttamam, kutrapi asti.
Kutra iti na janami.
Kutra iti na janami. Sarve avagachanti va? Kutrapi nasti.
Kutrapi nasti.
Ambagam.
कुत्रापि अस्ति, इस् इस् कुत्रापि अस्ति. सो 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 द नेक्स्ट् वन् ज्योति भगिनी,
आं भगिनि,
एतत् करोतु, एतत् वाक्यं करोतु.
भवत्याः पुस्तकं भवत्याः गृहे कुत्रापि नास्ति, तत् पुस्तकं मम समीपे अस्ति.
कुत्रापि नास्ति. उत्तमं भगिनि. अत्र कुत्रापि अस्ति, अत्र कुत्रापि नास्ति. सर्वे अवगच्छन्ति वा? अस्तु, तर्हि अहम् अग्रे गच्छामि. अवगच्छन्ति चेत् समयः न यापयामि. अत्र अग्रे गच्छामि. रम्या भगिनी.
कैकेयी वनं न गच्छति एव, सा अयोध्यायाम् एव आसीत्.
एव आसीत्, अत्रापि एव, वनं न गच्छति एव इत्युक्ते डेफिनेट्लि वनं न गच्छति एव, सा अयोध्यायाम् एव आसीत्. अवगतम्? अयोध्यायाम् एव आसीत्. अन्य कोऽपि अस्ति वा?
इन् दिस् थिङ्ग् द फस्ट् वन् डेफिनेट्लि, इन् दिस् सेकेण्ड् वन् इट् इस् ओन्लि.
ओन्लि,
इस् दट् द डिफरेन्स्?
आम् आम् आम्, बट् इट् इस् द सेम् वर्ड्. उत्तमम्. अन्य कोऽपि अस्ति वा? Who did not talk?
If the first sentence is a question, then we can change it to Kaikeyi vanam na gachati va, right?
Yeah, if you want a question, na gachati va?
Sa ayodhyayam eva asit.
अस्तु, सौन्दरं भगिनि, वदतु.
यदि किमपि प्रश्नः अस्ति तर्हि तं प्रश्नः पृच्छतु.
प्रश्नं पृच्छतु. सो अत्र अत्र भगिनि प्रश्नः इति पुल्लिङ्गपदं.
कोऽपि
कोऽपि, उत्तमं. यदि कोऽपि प्रश्नः अस्ति तर्हि प्रश्नं पृच्छतु. सो ऐ विल् आल्सो आस्क् कोऽपि अस्ति वा, इस् देर् एनिबडि, कोऽपि अस्ति वा इति. अस्तु, गोपिका भगिनी.
आं भगिनि. यदि अन्य,
सो यु केन् से कापि
कापि कापि सारि यदि कापि बालिका वक्तुं सारि यदि 16th वन् रैट्
17 भगिनि 17
यदि कापि बालिका वक्तुम् इच्छति तर्हि एषा बालिका वदतु अथवा सा
बालिका वदतु वक्तुम् इच्छति
एकः प्रश्नः
वदतु
च केन् वि यूस् फार् वैल् स्पीकिङ्ग् वित् फस्ट् पर्सन् फार् एक्साम्पल् इफ् वि आर् टाकिङ्ग् वित् टु पीपल् से अस्तु सुभद्रा बालिका च शाल् वि यूस् लैक् देट् भगिनि
न अवगतं भगिनि किं वदति
फार् एक्साम्पल् इफ् जगन्नाथ् इस् सेयिङ्ग् टु सुभद्रा एण्ड् बलराम्
ओके ओके ऐ अण्डर्स्टाण्ड् For two people, we cannot use like, okay, so for one person, we say bhavatu. For two people, we say bhavatah. So we don't, for two people, we don't want to use cha either. Okay, for three, we use cha. Uttamah prashnah. For example, Ramah Sita cha gachati is wrong. Gachanti is also wrong. So, Gachataha is correct. But we are not learning Gachataha, kalo. Dvivachanam na patamahavayam. So, astu.
Spashtam, Dhaniyavada.
Astu. Amba astiva ashta dashamam vakyam.
Yadi kimapi karyam asti तर्हि तत् कार्यं करोतु
उत्तमम् उत्तमं किमपि कार्यं किं किमर्थम् उपयोगं कृतवती किम् किमर्थं कः न का न किमर्थं किम् उपयोगं कृतवती अम्ब कार्यमिति पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा अम्ब नपुंसकलिङ्गम् उत्तमं नपुंसकलिङ्गम् अतः प्रश्नः किम् इति उत्तमं किम् अपि उत्तमम् उत्तमम् अम्ब किम् अपि उत्तमं सर्वे अवगच्छन्ति वा अत्र प्रश्नः पुल्लिङ्ग अतः कः बालिका स्त्रीलिङ्ग अथवा कापि कार्यं नपुंसकलिङ्गम् अतः किमपि अतः मीन्स् देयरफोर् अतः किमपि अत्र अत्रापि तथा एव कः अस्ति नोबडि सो अत्र मम गृहे किमपि किमपि कापि कोऽपि कः अस्ति कोऽपि अहं शीघ्रं शीघ्रं गच्छामि किमर्थम् इत्युक्ते नूतनपाठं नूतनपाठं प्रति गच्छामि अस्तु अत्र अत्र इति यत् इति अस्ति कुत्र इति कुत्र यत् उपयोगं कुर्मः इति पश्यामः एकवारं सः अहम् आगच्छामि इति उक्तवान् एतत् एक्टिव् वाय्स् लैक् महेश् महोदय उक्तवान् खलु सो अत्र एक्टिव् वाय्स् इति वदामः सः आगच्छामि इति उक्तवान् अत्र सः सः उक्तवान् यत् सः आगच्छति सो अत्र अहम् आगच्छामि इति वाक्य परिवर्तनं कृत्वा सः आगच्छति इति अहं वदामि अत्र सः यत् उक्तं तत् साक्षात् लिखामि अत्र अहम् आगच्छामि इति सः उक्तवान्
सारि यू हैव टु म्यूट एवरीबॉडी वन्स अगेन डिस्टर्बेंस आई एम नॉट एबल टू हियर क्लियरली
ओके सो प्लीज अनम्यूट ओनली इफ यू हैव अ क्वेश्चन प्लीज अस्तु अत्र अहम् आगच्छामि दिस इज व्हाट समबडी सेड सः उक्तवान् अहम् आगच्छामि सो अत्र अहं सः यत् उक्तवान् तत् साक्षात् लिखामि अहम् आगच्छामि इति सः उक्तवान् अत्र सः उक्तवान् यत् सः आगच्छति सो द डिफ्रेन्स् हियर् इस् ऐ एम् सेयिङ्ग् वाट् ही सेड् बट् नाट् अट् वर्बेटम् So at that time you use yet, like how we use that. He said that he will come. He said that he will come. Like that.
So that the word is yet.
That. So when I say that, I use yet.
Yet.
Saha
yet Uktavan, is the first ta, right?
First ta, yet.
Okay.
Saha uktavan yet saha agachati. Atra. अहं चिन्तयामि अहं पठामि इति हियर् अहं चिन्तयामि यत् अहं पठामि सो ऐ डोण्ट् हाव् टु चेञ्ज् इट् बिकास् यु नो दिस् इस् हौ इट् इस् अहं चिन्तयामि ऐ थिङ्क् दट् ऐ विल् स्टडि और् ऐ थाट् सपोसिङ्ग् ऐ एम् सेयिङ्ग् इन् भूतकाल अहं चिन्तितवती अहं पठामि इति अहं चिन्तितवती यत् अहं पठामि ओके सो वेन् वि यूस् इट् इन् दिस् काण्टेक्स्ट् देन् वि यूस् यत् अण्ड् इति अण्ड् यत् अवगतं वा अस्तु अहम् गच्छामि अग्रिम पाठः अस्ति तः पर्यन्तम् अत्र वादनम् इति अस्ति चेत् भेदः कः इदानीं सार्धपञ्चवादनं प्रातःकाले सार्धपञ्चवादनम् अत्र वादनम् आगच्छति वादने कदा कुत्र आगच्छति अहं पादोन षड्वादने उपविशामि वादने वादनतः वादनपर्यन्तम् अहं सार्धषड्वादनतः सो अत्र वादनम् अत्र वादने अत्र वादनतः अत्र मकारः नास्ति एकारः अपि नास्ति अवगतं वा अस्तु अहम् अवगतं चेत् अहं न लिखामि अस्तु सो अत्र
भगिनी मै अण्डर्स्टाण्डिङ्ग् इस् इन् मीन्स् दट् मकारं विल् कम् अट् मीन्स् एकारं विल् कम् देन् फार् एनिथिङ्ग् इन् बिट्वीन् तहट् पर्यन्तम्
इण्टर्प्रिटेशन् उत्तमम् अस्तु तर्हि अहं न लिखामि अस्तु वादनम् इदानीं सार्धपञ्चवादनम् अत्र किमपि कार्यं न सूचयामि ऐ एम् नाट् सेयिङ्ग् वाट् ऐ एम् डूयिङ्ग् अट् दट् टैम् केवलं सार्धपञ्चवादनम् अत्र पञ्चवादने अहम् उत्तिष्ठामि ऐ वेक पञ्चवादने अहम् उत्तिष्ठामि अत्र सार्धषड्वादनतः सप्तवादनपर्यन्तम् अत्र मकारः न आगच्छति एकारः न आगच्छति तः पर्यन्तम् एव आगच्छति सार्धषड्वादनतः सप्तवादनपर्यन्तम् अवगतं वा भेदः वादनं वादने वादनतः वादनपर्यन्तम् उत्तमम् अस्तु अग्रे गच्छामः अग्रिमपाठः अस्ति आरभ्य इति अहम् अद्य आरभ्य अहं योगासनं करोमि अद्य आरभ्य अहं संस्कृतं पठामि अवगच्छन्ति वा अहं किं वदामि इति अद्य आरभ्य अहं बहिः गच्छामि श्वः आरभ्य अहं कथां पठिष्यामि इति विषयः अस्ति. अद्य आरभ्य, श्वः आरभ्य, अवगच्छन्ति वा? अद्य आरभ्य अहं कथां पठामि, श्वः आरभ्य अहं कथां लेखिष्यामि. भवती कदा आरभ्य संस्कृतं पठति?
अहम् अद्य आरभ्य संस्कृतं पठति,
पठामि. उत्तम. अद्य आरभ्य संस्कृतं पठामि. एकमेकं वदति वा गोपिका भगिनी? अद्य आरभ्य अथवा श्वः आरभ्य अथवा परश्वः आरभ्य किं करोति?
आरभ्य इति अर्थं कृपया.
अद्य आरभ्य, अद्य आरभ्य अहं भोजनं पचामि. आरभ्य
स्टार्टिङ्ग्
अस्माकं वर्गः सप्तवादन आरभ्य भवति.
अस्तु अस्तु,
सप्त अवगतं वा?
अहम् अद्य ओके श्वः अहं श्वः मम
श्वः आरभ्य
श्वः आरभ्य गीतवर्गे गायामि.
गीतवर्गे गास्यामि. वर्गे
गास्यामि.
उत्तमम्. श्वः आरभ्य अहं गीतवर्गे गास्यामि. गास्यामि इत्युक्ते श्वः आरभ्य भवती प्रतिदिनं करोति, अथवा भवती प्रतिवर्गं गायति इति अर्थः. अद्य अहं श्वः आरभ्य प्रति शनिवासरे अहं मन्दिरं गच्छामि. साटर्डे प्रति शनिवासरम् अहं मन्दिरं गच्छामि. परश्वः भानुवासर खलु, परश्वः गुरुपूर्णिमा भवति खलु, भवति.
अतः देवालये पूजां करिष्यामि.
करिष्यामि. वदतु महोदय, प्रश्नं पृच्छतु. आरभ्यः न आरभ्य. गतवर्ष आरभ्य अहं संस्कृतपठनम् आरब्धं कृतवान्. पठितवान्
संस्कृतं.
प्रेसेण्टेन्स् इस् ईसियर् टु मेक् सेण्टेन्स्, दट्स् वै. अस्तु अस्तु अस्तु. गोपिका अभवत्, अम्ब वदति वा? अद्य आरभ्य, श्वः आरभ्य किं करिष्यति, करोति इति?
अद्य आरभ्य अहं योगासनं कृत्वा भोजनं करोमि.
उत्तमं. योगासनं कृत्वा भोजनं करोमि. उत्तमम् अम्ब. सागरि भगिनी, भवती अद्य आरभ्य किं करोति?
अद्य आरभ्य अहम् अभ्यासं करोमि.
उत्तमम्. अभ्यासं करोमि. उत्तमं. संस्कृत अभ्यासं वा, गीताभ्यासं वा, योगासनम् अभ्यासं वा?
संस्कृत
अभ्यासं करोति. उत्तमं भगिनी. बीना भगिनी, भवती अद्य आरभ्य अथवा श्वः आरभ्य किं करोति, किं करिष्यति?
अहं श्वः आरभ्य
आरभ्य
अहं श्वः आरभ्य श्लोकं पठिष्यामि.
उत्तमं, श्लोकं पठिष्यामि. उत्तमं भगिनि, श्लोकं पठिष्यामि. शारदा भगिनी.
आं भगिनि.
हा,
गतवर्षे आरभ्य प्रति गुरुवासरे सत्यनारायणपूजां कृतवती.
हा, उत्तमं. सो अत्र गतवर्ष आरभ्य, वर्षे आरभ्य न, गतवर्ष आरभ्य, गतवर्ष आरभ्य किम् इत्युक्ते गतवर्षे अहं सत्यनारायणपूजां कृतवती. सो अत्र आरभ्य इत्युक्ते इट् बिकमिङ्ग् अ पेटर्न्, इट्स् अ हेबिट्. स्टार्टिङ्ग् लास्ट् इयर् ऐ हेव् बीन् डूयिङ्ग् लैक् दट्. गतवर्ष आरभ्य, गतवर्ष आरभ्य अहं सत्यनारायणपूजां कृतवती, प्रतिमासं कृतवती, प्रति
पौर्णमी कण्टिन्यूस् प्रोसेस्.
हा, कण्टिन्यूस् प्रोसेस्. हा, उत्तमं महोदय. कण्टिन्यूस् प्रोसेस्. उमा भगिनि. अद्य आरभ्य
अहं व्यायामं करोमि.
करोमि, उत्तमं. व्यायामं करोमि. सविता भगिनी.
यस् भगिनी. अद्य आरभ्य अहं प्राणायामं करोमि.
प्राणायामं करोमि. उत्तमम्. अस्तु, अग्रे का अस्ति? मालति भगिनी.
अहम् अद्य
अद्य आरभ्य भगिनि, अद्य आरभ्य इति वदतु. अद्य आरभ्य
ध्यानं करोमि.
ध्यानं करोमि, उत्तमं भगिनि. नारायणमूर्ति महोदय.
अहं मार्च् मास आरभ्य गृहमेव तिष्ठिष्यामि.
उत्थितवान् गृहमेव उत्थितवान् गृहे एव उत्थितवान्
गृहे. I am just in the house like that to say.
Uttitavan.
Nice.
Atava, no, Uttitavan. I'm sorry. Stitavan, sorry.
Stitavan.
Uttitavan means to get up. Okay, I'm sorry.
Uttitavan.
Stitavan. Grihe eva stitavan. March maasa arabhya grihe eva stitavan. Uttama.
Stitavan. Thank
you. Usha bhai.
अहं परश्वः गुरुपूर्णिमादिने ध्यानं करिष्यामि.
उत्तमम्. कदा आरभ्य ध्यानं करिष्यति? कदा आरभ्य?
गुरुपूर्णिमादिने. गुरुपूर्णिमादिन आरभ्य ध्यानं करिष्यामि.
उत्तमम्. गुरुपूर्णिमादिने दिन आरभ्य अहं ध्यानं करिष्यामि इत्युक्ते प्रतिदिनं करिष्यामि इति अर्थः. गुरुपूर्णिमादिने अहं ध्यानं करिष्यामि. गुरुपूर्णिमादिन आरभ्य.
ओके.
गुरुपूर्णिमादिन आरभ्य अहं ध्यानं करिष्यामि. उत्तमम्. अथवा प्रति सप्ताहं, दट् इस् एव्री वीक् लैक् दट्. श्रीनिवास महोदय.
ओके. अहं मार्च् महीना आरभ्य गृहस्य बहिः न गतवान्
गृहस्य बहिः न गतवान् मार्च् मास आरभ्य गृहस्य ऐम् सोरि अत्र यु हाव् टु यूस् पञ्चमी विभक्ति गृहात् बहिः गृहात् बहिः न गतवान् अस्तु महिना ऐ डोण्ट् नो दट् सौण्ड्स् लैक् हिन्दी भाषा मार्च् मास आरभ्य अहं गृहात् बहिः न गतवान् यु केन् आल्सो अस्तु अस्तु करोतु महोदय सौन्दरं भगिनि
Bhagini, adhya aarabhya, we are talking about today only, is it? It is not routine.
Yeah, yeah, like today means adhya aham pakam krutavati. Aham pakam karomi. I am doing it today. But you want to make it a habit. So aarabhya.
So adhya aarabhya means only today we are talking. Because somebody says yoga sanam karomi. That is, they are talking about today or it is a routine, daily they are doing like daily, daily or today?
Daily routine, Bhagini. Daily routine. Daily routine, atava weekly routine, monthly routine, kimapi.
From today, it means, isn't it?
Adhya arabhya, aham, Bhagavad Gita varge patami.
Uttama. Bhagavad Gita varge patami. I can say, adhya varsha arabhya. अहं प्रतिवर्षं भारतं गमिष्यामि सो यु केन् जस्ट् चूस् एनी टैम् पीरियड् वर्ष मास लैक् दट्
भगिनि इट् मीन्स् फ्रम् टुडे फ्रम् यस्टर्डे फ्रम् डे आफ्टर् लैक् दट्
स्टार्टिङ्ग् टुडे स्टार्टिङ्ग् दिस् वीक्
I didn't mean from today, Bhagini. Then Pratidina Arabhya should have told, I think.
No. Adhya Arabhya, Pratidinam Aham, something. So, you have to say Adhya Arabhya, Pratidinam Aham Gita Slokam Patami. Starting today, every day, I will read one Gita Slokam. Adhya Arabhya, Pratidinam Aham Ekam गीता श्लोकं
पठामि
धन्यवादः अस्तु अन्य का अस्ति गोपिका अभवत् परमेश्वर महोदय
श्वः आरभ्य प्रतिदिनम् अहं प्राणायामं पुनरारम्भं करोमि
सो उत्तमं महोदय परन्तु भवान् श्वः इति उक्तवान् खलु अतः भविष्यत् कालमेव वदतु परश्वः आरभ्य अथवा किमपि उक्तवान् खलु किम् उक्तवान् भवान् परश्वः
आरभ्य अहं प्रतिदिनं प्राणायामं पुनरारम्भं करोमि ऐ हेड् स्टाप्ड् इट् नौ ऐ वांट् टु स्टार्ट् इट्
पुनरारम्भं करिष्यामि परश्वः आरभ्य करिष्यामि इति वदतु करिष्यामि ज्योति भगिनि
आं भगिनि गतवर्ष विजयदशमी दिने आरभ्य अहं ज्योतिषशास्त्र अभ्यासम् आरम्भं कृतवती
उत्तमं भगिनि सो अत्र गतवर्ग गतवर्ष
विजयदशमी दिने
एकनिमिषं भगिनि सो अत्र गतवर्ष विजयदशमी दिन आरभ्य
ओके भगिनि विजयदशमी दिन आरभ्य
सो यु केनाट् से वर्षे दिने लैक् दट् गतवर्ष विजयदशमी दिन आरभ्य अहं
ज्योतिषशास्त्र अभ्यासम् आरम्भं कृतवती
ज्योतिषशास्त्रस्य अभ्यासम् आरम्भं कृतवती उत्तमं
भगिनि अस्ट्रालजि इस् ज्योतिषशास्त्र रैट्
ज्योतिषशास्त्र विजस्य ज्योतिषशास्त्र
ओके ज्योतिषशास्त्र अभ्यासम् आरम्भं कृतवती
So you can put everything in one word, Bhagini. Jyoti Shastra Abhyasa.
Jyoti Shastra Abhyasam
Arambham Kritavati. Uttama.
Jyoti Shastra Abhyasa Arambham Kritavati.
Abhyasam Arambham Kritavati.
Okay,
Bhagini. Dhanyavada. Ramya Bhagini. रम्या भगिनी वदतु.
Am I audible? महिलाः ह्यः आरभ्य सहस्रनामं पठन्ति आर पठितवत्यः. विच् वन् विल् कम्?
ह्यः श्वः पठिष्यन्ति.
पास्ट् टेन्स् ऐ टोल्ड्. ह्यः पठितवत्यः. पठन्ति विल् नाट् कम्.
पठन्ति इस् अद्य आरभ्य.
ओके भगिनि. पठितवत्यः. महिलाः ह्यः आरभ्य सहस्रनामं पठितवत्यः.
उत्तमम्. इत्युक्ते अर्थः अस्ति प्रतिदिनं पठिष्यन्ति इति.
ओके भगिनि.
दट् इस् द अर्थ.
If we use atta, adhya, then we have to use patanti.
Patanti. Shvaha patishyanti. Shvaha arabhya mahilaha patishyanti.
Okay.
So atra, the assumption is, artha is pratidinam karoti iti. No chet, kimapi kalam suchaniyam. We have to mention some period. Shvaha arabhya prati shukravasaram. Like that. Pratidinam. Pratimasam. Prativarsham. Astu. Mahesh Mahadaya.
Kimapi nutana karyam arabhya vayam Ganeshaha pujayamaha.
किमपि नूतनकार्यम् आरम् न तत्र वन्दे चेत् इति आगच्छति महोदय. अथवा
आरभ्य इति
नूतन एतत् वदतु. गणेशपूजां
नूतनकार्यम् आरभ्य गणेश पूजयामः
न आगच्छति इति मन्ये. सो वाट् यु सेयिङ्ग् इस् वेन् यु स्टार्ट् अ वर्क् यु प्रे टु गाड् खलु.
बिफोर् बिगिनिङ्ग् आफ् एनी वर्क् वि प्रे टु लार्ड् गणेश.
सो यु हेव् टु से नूतन कार्य आरम्भात् अहं गणेशं पूजयामि. सो अत्र यु हाव् टु यूस् सम् टैम् पीरियड्. अद्य आरभ्य सर्वकार्य आरम्भात् पूर्वं गणेशं पूजयामि. इट् वर्क्स् लैक् दट्. सो द कार्यम् इस् मोर् लैक् एन् इवेण्ट् नाट् अ टैम्.
Oh, okay. So here we are mentioning about time, not the event.
Time. Like udaharanartham, someone mentioned, kalo, Vijaya Dashami Dina Arabhya. That is a time, Dina. Dinam is a time.
Dina Arabhya.
Gata Varsha Arabhya. March Masa Arabhya. अद्य आरभ्य, ह्यः आरभ्य, श्वः आरभ्य, आगामि किं सेप्टेम्बर् मास आरभ्य नूतन पुस्तकं पठिष्यामः. वदतु महोदयः, किमपि वाक्यं वदतु.
अद्य आरभ्य
आरभ्य न आरभ्य
आरभ्य अहं दन्तकूर्चः करोमि, दन्तधावनं करोमि,
दन्तधावनं करोमि. उत्तम. अवगच्छन्ति वा सर्वे? समयं सूचकवाचकं वदनीयं. समयसूचकवाचनम् इत्युक्ते किम्? अद्य, श्वः, गतदिने, मार्च् मास आरभ्य, गतदिन आरभ्य. गतदिन आरभ्य इत्युक्ते ह्यः आरभ्य. ह्यः आरभ्य इति वदामः चेत् क्रियापदं भूतकाले भवति. श्वः आरभ्य इति अस्ति चेत् भविष्यत्काले भवति. अस्तु, इदानीम् अभ्यासपुस्तके अस्तु एतत् पठितवन्तः. किम् अस्तु अत्र एकम् अस्ति. तः पर्यन्तं षड्वादनतः सप्तवादनपर्यन्तम् इति अस्ति. वादनविषये अत्र दिनविषये अस्ति. दिनविषये वयं कथं वदामः? दिनाङ्कः इति पदं योजयामः. दिनाङ्कः दिनाङ्कः इति पदं सर्वत्र योजयामः. वयम् अत्र एकम् इति अस्ति चेत् प्रथम इति वदामः खलु. प्रथम वि आड् प्रथम दिनाङ्कः. प्रथमदिनाङ्कः इत्युक्ते किम्? फस्ट् डे. फस्ट् सो अत्र फस्ट् तः सेवेन्त् पर्यन्तं. फस्ट् टु द सेवेन्त्. सो एकं विल् चेञ्ज् टु प्रथम. अस्माकं केलेण्डर् मध्ये प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी इति अस्ति खलु. तत् स्वीकुर्मः अत्र. प्रथमा अत्र प्रथमा न आगच्छति. किम् इत्युक्ते दिनाङ्कः इति पुल्लिङ्गपदम् एण्ड् वि आर् एडिङ्ग् टु वर्ड्स् टुगेदर्. अतः प्रथम एव. प्रथम इति मूलरूपम् अस्ति. प्रथमदिनाङ्कः इति योजयित्वा प्रथमदिनाङ्कः इति वदामः. परन्तु केलेण्डर् मध्ये प्रथमा, द्वितीया इति अस्ति. किम् इत्युक्ते तिथिः, तिथि इति स्त्रीलिङ्गपदम्. अतः प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी इति आगच्छति. परन्तु मूलरूपं प्रथम एव. प्रथम, द्वितीय एव. सो अत्र प्रथमदिनाङ्कः, द्वितीयदिनाङ्कः.
भगिनी, विच् एक्सर्सैज् इस् दिस् इन् द अभ्यासपुस्तकम्?
अभ्यासपुस्तकं 16.1.1. प्रथमदिनाङ्कः एव पदं. फस्ट् 46. अस्तु, प्रथमदिनाङ्कः, द्वितीयदिनाङ्कः. परन्तु अत्र तः इति अस्ति खलु. तः पर्यन्तं प्रथमदिनाङ्कतः. सो अतः अत्र प्रथम वदतु. प्रथम
दिनाङ्क
दिनाङ्कतः उत्तमं दिनाङ्कतः अत्र किम् अस्ति सप्त इति अस्ति खलु सप्तमी इति वयं जानीमः सप्तमी प्रथमदिनाङ्कतः
सप्तमी पर्यन्तं
सप्तम सप्तमी सप्तमदिनाङ्क
पर्यन्तं
दिनाङ्कपर्यन्तम् उत्तमम् So this is how we have to write, Etat abhyasam evam karaneyam. See, I used the word evam. Evam,
Do we have to say dinankaha? We cannot use just the seventh day, for instance.
How will you use bhagini? Samskrute vadatu?
Prathama dinankataha saptami pariyantam.
No, saptami is strilingam kalo.
Titi.
Titim suchayati. It indicates the titi. Panchami is the titi. Because we are talking about the month, January. So this is how, like January 1st to the 7th. So atra January iti asti.
Yeah, but I'm saying do we have to use the word dinankaha, dinankataha?
If you want shortcut, you can do. Prathamataha saptami pariyanta, if you want to use.
What is it? Prathamataha.
Prathamataha.
Yeah, that's what I was looking for.
Prathamataha saptami pariyanta.
Okay.
Bhagini, then that will become sthiti only, right?
No, prathamataha. प्रथमा स्थिति प्रथमा स्थिति
प्रथमतः इफ् यूस् आल्सो इट् बिकम् दिनाङ्क ओन्लि
दिना बट् प्रथम बट् दिस् इस् द करेक्ट् वे दिस् इस् द करेक्ट् वे दिनाङ्क इस् इस् द करेक्ट् प्रथमदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तम् अहं किं अस्तु पर्यन्तं मुख्यमन्त्री बेङ्गलूरुनगरे तिष्ठति प्रथमदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तं मुख्यमन्त्री बेङ्गलूरुनगरे तिष्ठति सो हौ विल् यु से 8 through 13
अष्टमदिनाङ्कः दिनाङ्कतः
अष्टमदिनाङ्कतः
त्रयोदशदिनाङ्कपर्यन्तं
मुख्यमन्त्री कुत्र तिष्ठति मैसूरुनगरे तिष्ठति ओके so this is how we have to do this abhyasa. So how will we do the next one?
Chaturdasha dinankatah.
मुख्यमन्त्री धारवाडनगरे
धारवाडनगरे तिष्ठति उत्तम
अथवा
सञ्चरति विस् टु गो अराउण्ड् हियर् इट् इस् तिष्ठति हि स्टेस् इन् वन् प्लेस् तिष्ठति अस्तु अन्यविषयः अस्ति अत्र विंशति आरभ्य Okay, now you know the word, I will use it. Vimshati Arabhya. Starting from Vimshati. Vimshati Arabhya Tama Iti Padam Yojaneyam. Udaharanartam. So we'll take the last one. Katam Likamaha.
पञ्च
पञ्चविंशति सारि विंशतितम
तमदिनाङ्क
पञ्चविंशतितमदिनाङ्क आरभ्य
वेरि लाङ्ग् लाङ्ग् वन् रैट् आरभ्य
आरभ्य
अस्तु पञ्चविंशतितमदिनाङ्क आरभ्य स्टार्टिङ्ग् फ्रम् 20
स्टार्टिङ्ग् फ्रम् 20
विंशति आरभ्य विंशति आरभ्य तम इति पदं योजनीयं पञ्चविंशतितमदिनाङ्क आरभ्य
त्रिंशत् दिनाङ्कपर्यन्तं
त्रिंशत्तम
tama goes up to 100 anything after 20
20 arabia
tama basically stands for the th
actually it's not just th for example we have fourth there also we have th
from 20 after 20 tama stands for th
not just mahodaya no
पञ्चविंशति तमदिनाङ्क
आरभ्य पञ्चविंशति इस् 25 पञ्चविंशति तम इस् 25th राइट
नो दिनाङ्क इस् 25th पञ्चविंशति तम दिनाङ्क पञ्चविंशति
ओके इफ आई डोंट ऐड दिनाङ्क देन पञ्चविंशति तम इस् नॉट 25th
नो पञ्चविंशतिदिनाङ्कतः ऐ डोट् अ राङ्ग् वन् अस्तु पञ्चविंशतितमदिनाङ्कतः उदाहरणार्थं इफ् ऐ से पञ्चदिनाङ्कतः वेर् इस् दि टि हेच् अत्र पञ्चदिनाङ्कतः ऐ एम् सेयिङ्ग्
No, let me put a different question then. The student's number 25 to 30 passed the exam. Will Tama come, not come there? Come. Student number 25 to 30 passed the exam. How does it come there?
So, atra we say, chatraha 25, kalo. So, pancha vimshati sankhya eva.
No, no. Students are serial numbered 1 to 50, say for example. I am saying 25 to 30 passed.
Yeah, so at that time we used just the number.
Tama for only the dates, I think, isn't it?
So, okay, so let me put another way. So we have cardinals and ordinals, hello?
Okay, yeah.
So... We have ordinals are like the first, second, third, fourth. So we have the cardinals are ekam, dve, trini, chatvari. So when we say the 25th person, then we say pancha vimshati tama chatraha. Pancha vimshati tama chatraha uttirnaha bhavati. He passed.
Okay.
Or we say pancha vimshati arabhya. Pancha vimshati arabhya. Starting from 25. Pancha vimshati arabhya. Uttirnaha bhavati. Uttirnaha.
Bhagini, pancha vimshati pancha vimshati taha arabhya. Trimshati uttirna. Trimshati taha
भवन्ति ओके so this is how we do this exercise. Avagatam va?
Avagatam va bhagini. एक प्रश्न इन् केस् इट् इस् केलेण्डर् डेट्स् देन् वि नीड् टु यूस् दिनाङ्क इफ् द सेम् टेबल् इस् एस् पर् द तिथि देन् हौ डु वि से
सो वि से पञ्चमीतः एकादशी पर्यन्तं
पञ्चविंशतितः त्रिंशत्
त्रिंशत्पर्यन्तं
द तिथि इस् ओन्लि अप् टु 15 महोदय आक्चुलि ओन्लि 14
ओके भगिनि
शीघ्रं पठामि एतत् अस्तु अत्र एकं सम्भाषणम् अस्ति अहं पठामि गोपाल भवतः परीक्षा समीपम् आगता अद्य आरभ्य प्रतिदिनं पठतु अद्य आरभ्य प्रतिदिनं पठतु गोपाल वदति अद्य मम मित्रस्य गृहं गच्छामि इत्युक्ते समयः नास्ति अद्य मम समयः नास्ति श्वः आरभ्य पठिष्यामि इत्युक्ते प्रतिदिनम् इति अर्थः प्रतिदिनं पठिष्यामि भगिनी माला वदति भवतु मीन्स् अस्तु गोपाल विद्यालये योगासनकक्ष्या कदा आरभ्य भविष्यति कदा आरभ्य स्टार्टिङ्ग् वेन् कदा आरभ्य भविष्यति परश्वः आरभ्य भविष्यति परश्वः मम अवकाशः न भविष्यति अवकाशः ऐ विल् नाट् हाव् दि आपर्चुनिटि ऐ विल् नाट् बि एबल् टु प्रपरश्वः आरभ्य अहमपि योगासनकक्ष्याम् आगमिष्यामि प्रपरश्वः आरभ्य प्रतियोगासनकक्ष्याम् आगमिष्यामि इति अर्थः प्रति भगिनी मातुलस्य पत्रम् आगतं वा सो अत्र भूतकालं नैव भोः इत्युक्ते निश्चयेन न इति अर्थः निश्चयेन न भोः अहं परह्यः आरभ्य ह्यः यस्टर्डे परह्यः डे बिफोर् यस्टर्डे आरभ्य तस्य प्रतीक्षां कृतवती I have been waiting. I had been waiting. Tasya pratiksham kritavati. Parantu na agatam. So, eta deva udaharanani. Examples of how to use bhutakala, bhavishyatkala and prashna. Kada arabhya bhavati samskritam patitavati? Aham march masa arabhya. Atava गतवर्ष डिसेम्बर् मास आरभ्य अहं संस्कृतवर्गं गतवती अथवा गतवान् कदा आरभ्य भवती संस्कृतवर्गं गमिष्यति भूतकाले अपि उपयोगं कर्तुं शक्नुमः कदा आरभ्य गतवती कदा आरभ्य गृहपाठं करोति अहं सप्तवादन आरभ्य करिष्यामि सप्तवादन आरभ्य करोमि अवगतं वा भूतकाल भविष्यत्काल वर्तमानकाल त्रिकालमपि उपयोगं कर्तुं शक्नुमः कदा आरभ्य कृतवान् कदा आरभ्य करोति कदा आरभ्य करिष्यति उत्तरमपि तदा एव ह्यः आरभ्य कृतवती इत्युक्ते इट्स् अ कण्टिन्यूस् थिङ्ग् ह्यः आरभ्य अहं योगासनं कृतवती इत्युक्ते अद्यापि करोमि श्वः अपि करिष्यामि इति अर्थः आरभ्य इत्युक्ते पेटर्न् अवगतं वा अत्र किमपि वाक्यानि लिखन्तु सम्भाषणं लिखन्तु अस्तु अहं प्रश्नाः सन्ति वा अस्मिन् विषये आरभ्य दिनाङ्कः इति सः पर्यन्तं विषये अस्तु प्रश्नाः न सन्ति चेत् अहं क्लोस् करोमि अस्तु